वासुदेवाय, ओम नमो भगवते वासुदेवाय, ओम नमो भगवते वासुदेवाय, ओम श्री परमात्मने नमः। श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे षट्सप्ततितमोऽध्यायः। श्रीगणेशाय नमः। श्रीशुक उवाच, अथान्यदपि कृष्णस्य शृणु कर्माद्भुतम् नृप, क्रीडानरशरीरस्य यथा सौभपतिर्हतः, शिशुपालसखश्याल्वो रुक्मिण्युद्वाह आगतः, यदुभिर्निर्जितः सङ्ख्ये जरासन्धादयस्तथा, शाल्वः प्रतिज्ञामकरोत् शृण्वताम् सर्वभूभुजाम्, अयादवीम् क्ष्माम् करिष्ये पौरुषम् मम पश्यत इति मूढः प्रतिज्ञाय देवम् पशुपतिम् प्रभुम् आराधयामास नृप, पौंसुमुष्टिम् सकृद्ग्रसन् संवत्सरान्ते भगवानाशुतोष उमापतिः वरेण छन्दयामास शाल्वम् शरणमागतम्। देवासुरमनुष्याणाम् गन्धर्वोरगरक्षसाम् अभेद्यम् कामगम् वव्रे सयानम् वृष्णिभीषणम्, तथेति गिरिशादिष्टो मयः परपुरञ्जयः, पुरम् निर्माय शाल्वाय प्रादात् सौभमयस्मयम्। सलब्ध्वा कामगम् यानम् तमोधामदुरासदम्, ययौ द्वारवतीम् शाल्वो वैरम् वृष्णिकृतम् स्मरन्। निरुध्यसेनया शाल्वो महत्या भरतर्षभो पुरीम् बभञ्जोपवनान्युद्यानानि च सर्वशः, स गोपुराणि द्वाराणि प्रासादाट्टालतोलिकाः, विहारान् स विमानाग्रयान्निपेतु शस्त्रवृष्टयः, शिलाद्रुमाश्चाशनस सर्पा आसारशर्कराः, प्रचण्डश्चक्रवातोऽभूत् रजसाच्छादितादिशः, इत्यर्द्यमाना सौभेन कृष्णस्य नगरीभृशम्। नाभ्यपद्यतशम् राजंस्त्रिपुरेण यथा महीम्, प्रद्युम्नो भगवान् वीक्ष बाध्यमाना निजाः प्रजाः, मा भैष्ठेत्यभ्यधात् वीरो रथारूढो महायशाः। सात्यकीश्चारुदेष्णश्च साम्बो क्रूरः सहानुजः, हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणम्, अपरे च महेश्वासा रथयूथपयूथपाः, निर्ययुर्दंशिता गुप्ता रथे भाष्वपदातिभिः, ततः प्रवृत्ते युद्धम् शाल्वानाम् यदुभिः सह, यथासुराणाम् विबुधैस्तुमूलम् लोमहर्षणम्। ताश्च सौभपतेर्माया दिव्यास्त्रैरुक्मिणी सुतः, क्षणेन नाशयामास नैशम् तम इवोष्णगुः। विव्याध पञ्चविंशत्याम् स्वर्णपुङ्खैरयोर्मुखैः, शाल्वस्य ध्वजिनी पालम् शरैः सन्नतपर्वभिः, शतेनाताडयच्छाल्वो मेकैकेनास्य सैनिकान् दशभिर्दशभिर्नेतृन् वाहनानि त्रिभिस्त्रिभिः। तदद्भुतम् महात्कर्म प्रद्युम्नस्य महात्मनः। दृष्ट्वा तम् पूजयामासु सर्वे स्वपरसैनिकाः। बहुरूपैकरूपम् तद् दृश्यते न च दृश्यते, मायामयम् मयकृतम् दुर्विभाव्यम् परैरभूत्। क्वचिद् भूमौ क्वचिद् व्योम्नि गिरिमूर्ध्नि ज्वले, पुनः गिरिमूर्ध्नि जले क्वचित् अलातचक्रवद् भ्राम्यत् सौभम् तद्दुरवस्थितम्। यत्र यत्रोपलक्षेतो ससौभ सह सैनिकः। शाल्वस्तस्ततो पुनः शाल्वस्तस्ततो मुञ्चन् शरान् सात्वतयूथपाः। शरैरग्न्यर्कसंस्पर्शैराशि विषदुरासदैः पीड्यमानपुरानीकः शाल्वो मुह्यत्परेरितैः। शाल्वानीकपशस्त्रौघैर्वृष्णिवीराभृशार्दिताः। न तत्यजूरणम् स्वम् स्वम् लोकद्वयजिगीषवः। शाल्वामात्योद्युमान्नाम प्रद्युम्नम् प्राक्प्रपीडितः। आसाद्य गदया मौर्व्या व्याहत्य व्यनदद्बलि। प्रद्युम्नम् गदया शीर्ष्णवक्षस्थल मरिन्दमम् अहो पुनः अपोवाहरणात् सूतो धर्मविद्दारुकात्मजः। लब्धसंज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत् अहो असाध्विदम् सूत यद्रणान्मेऽपसर्पणम्। न यदूनाम् कुले जात श्रूयते रणविच्युतः। विना मत्क्लीबचित्तेन सूतेन प्राप्त किल्विषात्। किन्नु अक्षेऽभिसङ्गम्य पितरौ रामकेशवौ युद्धात् सम्यगपक्रान्तः। पृष्टस्तत्रात्मनः क्षमम् व्यक्तम् मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः। क्लैव्यम् कथम् कथम् वीर तवान्यै कथ्यताम् रुधे। सारथि उवाच धर्मम् विजानतायुष्मन् कृतमेतन्मया विभो। सूतः कृच्छगतम् रक्षेत् रथिनम् सारथिम् रथी। एतद्विदित्वा तु भवान् मयापोवाहितोरणात् उपसृष्टः परेणेति मूर्छितो गदया हतः। ॐ इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे शाल्वयुद्धे षट्सप्ततितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। हरये नमः हरये नमः हरये नमः।